इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। अथ वार्ताः। विदेशमन्त्री डॉ सुब्रह्मण्यम् जयशंकरः मॉरिशस देशस्य द्विदिवसीय यात्रायां वर्तते। सः गतवासरे मॉरिशस देशस्य पोर्ट लुईस नगरे प्रधानमन्त्रिणं प्रविन्द जुगनाथं मिलितवान्। डॉ जयशंकरः अवदत् यत् सः भारतस्य मॉरिशस देशस्य च विशेष सम्बन्धस्य उन्नतये उत्सुकः अस्ति। अतोपि सः मॉरिशस देशस्य अन्यैः वरिष्ठ मन्त्रिभिः सह द्विपक्षीय समागमं करिष्यति। सः अन्यैः प्रमुखैः मॉरिशस नेतृभिः सह अपि मेलनं करिष्यति। विदेशमन्त्रालयेन उक्तं यत् एषा यात्रा उभयपक्षाभ्याम् उभयपाक्षिक सम्बन्धस्य विविध पक्षेष् व्यापक समीक्षायाः अवसरं प्रदास्यति। मन्त्रालयेन इदमपि उक्तं यत् एषा यात्रा भारत मॉरिशस सम्बन्धस्य महत्वम् अंकयति तथा च भारतस्य प्रतिवेशि प्रथमः इति नीतिं विजन सागरं वैश्विक दक्षिणं प्रति प्रतिबद्धतां च प्रतिबिम्बयति। बहुवायामी द्विपक्षीय सम्बन्धं सुदृढं कर्तुं जनानां निकट सम्बन्धं गभीरं कर्तुं च द्वयोः देशयोः निरन्तर प्रतिबद्धतां पुनः पुष्टयति। राष्ट्रपतिः द्रौपदी मुर्मूः न्यायमूर्तिम् एन कोटीश्वर सिंहं न्यायमूर्तिम् आर महादेवन वर्यं च सर्वोच्च न्यायालयस्य न्यायाधीशत्वेन नियुक्तवती। ध्यानास्पदमस्ति यत् न्यायाधीशः एन कोटीश्वरः जम्मू कश्मीरस्य लद्दाखस्य च उच्च न्यायालये मुख्य न्यायाधीशः आसीत्, अथ च न्यायाधीशः आर महादेवन मद्रासोच्च न्यायालये न्यायाधीशः अवर्तत। सीबीआई इत्यनेन केन्द्रीयान्वीक्षणाभिकरणेन आयुर्विज्ञान स्नातक प्रवेश परीक्षा प्रवञ्चना प्रकरणे भूयः अपि जनद्वयं निगृहीतम्। पटनातः निगृहीतः जनः झारखण्डवासी वर्तते, अपरः जनः हजारीबागतः धृतः। अभिकरणेन अधुनावधि अस्मिन् प्रसंगे झारखण्डस्य विद्यालयीय प्रधानाचार्यं सहप्रधानाचार्यं च समेत्य चतुर्दश जनाः निगृहीताः। आईएमएफ इत्यनेन अन्ताराष्ट्रिय मुद्राकोषेण प्रवर्तमान वित्तवर्षे भारतस्य आर्थिकवृद्धेः पूर्वानुमानः विंशत्यंकैः संवर्ध्य प्रतिशतं सप्तमितः कृतः। पूर्वम् एषः अनुमानः 6.8% आसीत्। भारतेन स्वप्रयत्नानां माध्यमेन सतत विकासलक्ष्याणां प्रगतो महत्वपूर्णं योगदानं कृतमस्ति। नीत्यायोगस्य उपाध्यक्षेण सुमन बैरी इत्यमुना संयुक्तराष्ट्रसंघस्य एचएलपीएफ इति उच्चस्तरीय राजनैतिक मञ्चे सामान्य वाद विवादे राष्ट्रिय वक्तव्यं यच्छता भारतस्य सतत विकासाय समावेशी वृद्धि च प्रतिबद्धतायां बलं दत्तम्। बेरी इत्यमुना उक्तं यत् स्वप्रयत्नेन भारतस्य सतत विकास लक्ष्येष् महत्वपूर्णं योगदानम् अभवत्। सः उल्लेखितवान् यत् भारतं भौतिकांकीय रचनायां सफल वितरणस्य माध्यमेन वञ्चनाः न्यूनीकर्तुं डिजिटल वितरणेन सह लक्षित सामाजिक सुरक्षा जाल कार्यक्रमाणां परिष्कृत महिला संस्थानानां न्यूनतम विकसित प्राशासनिक क्षेत्रेष् च कार्य करणेन अस्मिन् क्षेत्रे सफलम् अभवत्। उपाध्यक्षः योजितवान् यत् भारतेन नवीकरणीयोर्जायां अर्थव्यवस्थायाः हरितीकरणे च बहुनिवेशः कृतः। भारतीयर्तुविज्ञानविभागेन अनुमीयत यत् आगामि पञ्चदिवसेष् गोवायां मध्यमहाराष्ट्रे गुजराते केरले कर्णाटके च भूयोऽपि अतिवृष्टिः भविष्यति। अन्ते क्रीडावार्तासु स्वीडिश ओपन टेनिस स्पर्धा मालिकायाः पुरुषैकलवर्गे द्वात्रिंशे चक्रे गतसायं भारतस्य सुमित नागलः स्वीडिश प्रतिद्वन्द्विनम् एलियास यमेरं 6-4, 6-3 इत्येतैः अंकान्तरालैः पराजितवान् इति वार्ताः।